एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। जलवायु विज्ञान विभागेन अस्मिन् वर्षे वर्षायाम काले तुलनात्मक रूपेण अधिक वृष्टिः अधिकोष्णता च सम्भविष्यतः इति प्रक्षेपितम् वर्तते। विभागेन ह्य ललितपुरे आयोजिते एतद् विक्रम वर्षीय राष्ट्रिय वर्षायाम कार्यक्रमे जलवायु विधः एवं प्रक्षेपणं सार्वजनिकृतवन्तः। विभागस्य वरिष्ठ जलवायु विदौ विभूति पोखरेलः प्रतिमा मानन्धर च अस्मिन् वर्षे वर्षायामे तुलनात्मक रूपेण अधिक वृष्टेः अधिक तापक्रमस्य च सम्भावनाया विद्यमानत्वात् यथासमयं तज्जन्यां क्षतिं न्यूनीकर्तुं तत्परावस्थायां पूर्वकार्याणि कृत्वा स्थातुम् अनुरुन्धाम्। हुम्ला जनपदस्य नामखा ग्रामपालिकायाः षष्ठ ओडा क्षेत्रस्य तिलग्रामे हिमरदस्य विस्फोटनस्य घटनाम् अनुसन्धातुं गृहमन्त्रालयेन विज्ञसमूह परिचालितो वर्तते। तिलग्रामे जलविप्लवेन प्रभावितेभ्य द्वात्रिंशत् परिवारेभ्य सुरक्षित स्थानेषु विद्यालयेषु च निवसनस्य व्यवस्था विहिता अस्ति इति हुम्ला जनपदस्य प्रमुख जनपदाधिकारी नारायण पाण्डे असूचयत्। जलविप्लवेन प्रभावितेभ्य जनेभ्य आवश्यक खाद्यान्नस्य वस्त्रादीनां स्वास्थ्य सेवायाश्च व्यवस्था विहिता अस्ति इति प्रमुख जनपदाधिकारी पाण्डे अज्ञापयत्। प्रतिनिधि सभा अन्तर्गतया सार्वजनिक लेखा समित्या पोखरा विमानस्थलस्य निर्माणे भ्रष्टाचारः सम्भूतोऽस्तीति निष्कर्षं प्रकाश्य विस्तृताय अनुसन्धानाय अधिकार दुरुपयोगानुसन्धानायोगः निर्दिष्टो वर्तते। समितेः ह्यस्तनोपवेशे सभापतिः ऋषिकेश पोखरेलः समितेः सदस्यस्य राजेन्द्र लिङ्गदेन इत्यस्य नेतृत्वस्य उपसमित्या निर्मितं प्रतिवेदनं पुनः अध्येतुम् अधिकार दुरुपयोगानुसन्धानायोगे प्रेषणाय निर्णयो विहितोऽस्ति इति असूचयत्। उपवेशे समितेः सदस्यः द्वाभ्याम् अब्जाभ्याम् द्वाविंशति कोटिभ्योऽपि अधिकानि कररूप्यकाणि निःशुल्कं विहितं दृश्यते इत्यतः तत्र कार्ये स्वीकृति प्रदाने संलग्नान् जनान् दण्डयितुं पोखरान्तर्राष्ट्रिय विमानस्थलस्य रूपेण प्रचारे विहितेऽपि अन्तर्राष्ट्रियाय उड्डयनाय उपयुक्तस्य विमानस्थलस्य निर्माणं न विधाय भ्रष्टाचारो विहितोऽस्ति इति चर्चयन्तः तत्र संलग्नान् जनान् दण्डयितुं याचितवन्तः। उपसमित्या विमानस्थलस्य निर्माणक्रमे दशाब्देभ्य अपि अधिकानां रूप्यकाणां भ्रष्टाचारः विहितोऽस्ति इति निश्चित्य प्रतिवेदनं प्रस्तुतं वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशेन गतविक्रमवर्षीयं पर्यटन विधेयकम् आधृत्य विचारितामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा बद्रीप्रसाद पाण्डेभिधेन प्रस्तुतं विधेयकमिदं सैद्धान्तिक विमर्शनानन्तरं सभया सर्वसम्मत्या स्वीकृतमस्ति। विधेयकमाधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री पाण्डेय राष्ट्रियसभायाः विधायन व्यवस्थापन समितौ विमर्शनं विधाय विधेयकं समृद्धं विधातुम् आत्मना सहयोगो विधास्यते इति अवदत्। विमर्शने सांसदः परिवर्तितायाः परिस्थितेः अनुसारेण समयानुकूलं विधिं निर्माय पर्यटनक्षेत्रस्य विकासं विस्तारं प्रवर्धनं कृत्वा च नेपालम् आकर्षकं सुरक्षितं च पर्यटकस्थलत्वेन विकसयितुम् आवश्यकता अस्ति इति अगदन्। उपवेशे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दहालः अस्यैव ज्येष्ठ मासस्य एकादश द्वादश दिवसयोः सप्ताहनामेव प्रदेशानां प्रमुख केन्द्रेषु स्थानीयस्तराणां प्रमुखैः उपप्रमुखैः प्रदेशसभानां सदस्यैश्च सह समन्वयात्मकाय उपवेशाय समयः निर्धारितोऽस्ति इति असूचयत्। उपवेशे विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दहालः गतविक्रमवर्षीयं जलपोत संचालन व्यवस्थापन विधेयक सम्बद्धं समितेः प्रतिवेदनं प्रस्तुतवती। एवमेव राष्ट्रियसभायाः सचिवः डॉ सुरेन्द्र अर्यालः गतविक्रमवर्षीयं हुतात्मा दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालय विधेयक सम्बद्धं प्रतिनिधिसभातः प्राप्तं सन्देशं सभासमक्षं प्रास्तौत्। तत्पूर्वं सांसदः वर्षायामः प्रारब्धोस्तीति चर्चयन्तः जलवायु परिवर्तनस्य प्रभावः हिमरदेषु वर्तते। वर्तते अस्मिन् विषये समय एव सावधानताम् अवलम्बितुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रसभायाः अपरोपवेशः ज्येष्ठमासस्य चतुर्दशे दिवसे दिवासपादैकवादने वस्ता। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितौ विद्यालय शिक्षा विधेयकस्य विषये अध्येतुं संघचितायाः उपसमितेः प्रतिवेदनमाधृत्य सांसदाः धारणां व्यक्तवन्तः सन्ति। समितेः स्थनोपवेशे सदस्याः आन्दोलनस्य प्रभावे निपत्य विधि निर्माणं न विधेयम् इति चर्चयन्तः बहुकालानन्तरं प्रस्तूयमानस्य विद्यालय शिक्षाधिनियमस्य कृते सम्भूतया विद्यालय शिक्षाधिनियमस्य कृते सूक्ष्मतया परामर्श विधेय इत्यत्र बलं प्रादुः। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः निरन्तरं विमृश्य विद्यालय शिक्षा विधेयकं निष्कर्षे प्रापयितुं समितिं परामृशत्। समितेः सभापतिः अमर बहादुर थापा प्रथमे चरणे उपसमितेः प्रतिवेदनमाधृत्य सांसदानां धारणया प्रस्तुतेः अनन्तरं विधेयकमाधृत्य नैरन्तरेण प्रकरणगतं विमर्शनं विधास्यते इति अज्ञापयत्। रक्षामन्त्री मानवीर राय नेपाली सेना देशे समापतितानां सर्वविध समस्यानां समाधानाय विपदां प्रतिकरणाय च समर्थास्ति इति उक्तवान् वर्तते। रक्षा मन्त्रालयेन ह्य सोलुखुम्बु जनपदस्य सल्लेरी स्थाने आयोजितायां राष्ट्रिय निकुञ्ज वन्यजन्तु आरक्षण सुरक्षा सम्बद्धायां अन्तर्क्रियायां रक्षामन्त्री राई एवं अवदत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः भाषते सर्वत्र जनतायां स्वास्थ्य सेवायाः प्राप्त्यर्थं स्रोतसां प्राथमिकतायाश्च संयोजन पुरस्सरं विश्वव्यापी रूपेण सहकार्यस्य आवश्यकता वर्तते। स्विट्जरल्याण्डदेशस्य जेनेवा नगरे सञ्चाल्यमाणे अष्टसप्ततितमे विश्व स्वास्थ्य सम्मेलने सम्बोधनं विदधान स्वास्थ्यमन्त्री पौडेलः वर्तमान स्वास्थ्य संकटस्य प्रतिकारं विधातुं नेपालेन नूतन समाधानस्य अनुसन्धानं विधीयमानमस्ति इति अगदत्। नेपालेन स्वास्थ्य सुरक्षण कार्यक्रम सञ्चालितोऽस्ति इति चर्चयन् मन्त्री पौडेलः निरोधात्मिकायाः स्वास्थ्य सेवायाः महामारी पूर्व कार्य सञ्चेतनायाः अत्याधुनिक स्वास्थ्य सेवा प्रणाल्याश्च विषये बलं प्रदत्तमस्ति इति च उदैरयत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी जैविक कृषि कर्म विधेयम् स्थानीयानि बीज जातानि प्रयोक्तव्यानि चेति आवश्यकताम् दर्शयति। खाद्यस्य कृते कृषिः इत्यभियानस्य अन्तर्गतायाः जैविक कृषि जागरण यात्रायाः सन्देशस्य सार्वजनिकीकरण कार्यक्रमे ह्य कृषिमन्त्री अधिकारी कृषिकर्तृभ्यः सर्वेभ्यः सहयोगं विधातुं खाद्यस्य कृते जैविक कृषि प्रणालीं प्रवर्धयितुं च प्राप्तं परामर्शस्य अनुसारं कार्यं विधातुं मन्त्रालयः तत्परोऽस्ति इति अवदत्। रूकुम पश्चिम जनपदस्य बाफीकोट ग्रामपालिकायाः कार्यालयस्य प्रमुख प्रशासकीयाधिकृतेन दुर्गबहादुर ओली इत्यनेन सहितानां चतुर्णां जनानां विरुद्धे एकविंशतेः लक्षेभ्य त्रिष्टष्टेभ्यश्च अधिकानां रूप्यकाणां भ्रष्टाचारो विहितो इत्यारोप्य अधिकार दुरूपयोगानुसन्धानायोगेन आरोपपत्रं पञ्जीकारितं वर्तते इति समाचारः।